वेदपाठाः यजुर्वेद पदपाठः
ॐ इषे त्वा ऊर्जे त्वा वायवः स्था उपायव इत्युपा आयवः स्था देवः वः सविता प्रेति अर्पयतु श्रेष्ठतमायेति श्रेष्ठतमाय कर्मणे एति व्यायध्वम् अग्नियः देवभागमिति देवभागम् ऊर्जस्वतीः वयस्वतीः प्रजावतेरिति प्रजावतीः अनमेवाः अयक्ष्माः मा वहास्तेनः ईशत मा अघशगुंस इत्यघशगुंसः रुद्रस्य हेतिः परेति वः वृणक्तो ध्रुवाः अस्मिन् गोपतावित्ति गोपतो स्यात बह्वीः यजमानस्य पशून् पाहि इषेत्र चत्वारिगुंसतु यज्ञस्य घोषतु असि प्रत्युष्टमिति प्रति उष्टम् रक्षः प्रत्युष्टा इति प्रति उष्टाः अरातयः प्रेति इयम् अगातु धिषणा बर्हिः अच्छ मनुना कृता स्वधयेति स्वधया वितष्टेति वितष्टा ते एति वहन्ति कवयः पुरस्तात् देवेभ्यः जुष्टम् इह बर्हिः आसद इत्यासदे देवानाम् परिशोतमिति परिशोतम् असि वर्षवृद्धमिति वर्षावृद्धम् असि देवबर्हिरिति देवबर्हिः मा त्वा अन्वको मा तिर्यकु पर्वते राध्यासम् आच्छेत्तेत्याच्छेत्ता ते मा ऋषम् देवबर्हिरिति देवबर्हिः शतवलशमिति शतवलशम् वीति रोह सहस्रवलशा इति सहस्रवलशाः वीति वयम् रुहेम पृथिव्याः सम्पृत इति सम्पृतः पाहि सुसंभृतेति सुसंभृताः त्वा समिति भरामि आदित्यैरास्ना असि इन्द्राण्यै सन्नहनमिति सन्नहनम् पूषा ते ग्रन्थिम् ग्रथातु सह ते मा एति स्थातु इन्द्रस्य त्वा बाहुभ्यामिति बाहुभ्याम् उदिति यच्छे बृहस्पतेः मूर्ध्ना हरामि उरु अन्तरिक्षम् अन्विति इहि देवम् गममिति देवम् गमम् असि सहस्रवलश अष्टात्रिगुंसच्च सुन्धध्वम् दैव्याय कर्मणे देवयज्याय इति देवयज्यायै मातरिश्वनः घर्मः असि द्यौः असि पृथिवी असि विश्वधाय इति विश्वधायाः असि परमेण धाम्ना दृगुंहस्व माह्वाः वसूनाम् पवित्रम् असि शतधारमिति शतधारम् वसूनाम् पवित्रम् असि सहस्रधारमिति सहस्रधारम् हुतः स्तोकः हुतः द्रप्सः अग्नये बृहते नाकाय स्वाहा द्यावा पृथिवीभ्यामिति द्यावा पृथिवीभ्याम् सा विश्वायुरिति विश्व आयुः सा विश्वव्यचा इति विश्वव्यचः सा विश्वकर्मेति विश्वकर्मा समिति पृच्छ्यध्वम् अर्तावरैरित्युरतावरैः ऊर्मिणीः मधुमत्तमा इति मधुमतुत्तमाः मन्द्राः धनस्य सातये सोमेना त्वा एति तनच्मि इन्द्राय दधि विष्णो इति हव्यम् रक्षस्व सोमेनाष्टौ च कर्मणे वाम् देवेभ्यः शकेयम् वेषाय त्वा प्रत्युष्टमिति प्रति उष्टम् रक्षः प्रत्युष्टा इति प्रति उष्टाः अरातयः धूः असि धूर्व धूर्वन्तम् धूर्व तम् यः अस्मान् धूर्वति तम् धूर्वायम् वयम् धूर्वामः त्वम् देवानाम् असि सस्नितममिति सस्नितमम् पप्रितममिति पप्रितमम् जुष्टतममिति जुष्टतमम् वह्नितममिति वह्नितमम् देवहूतममिति देवहूतमम् अहृतम् असि हविर्धानमिति हविः धानम् दृगुंहस्व माह्वाः मित्रस्य त्वा चक्षुषा प्रेति ईक्षे मा भेः मा समिति विक्थाः मा त्वा हिगुंसिषम् उरु वाताय देवस्य त्वा सवितुः प्रसवैति प्रसवे अश्विनोः बाहुभ्यामिति बाहोभ्याम् पोष्णः हस्ताभ्याम् अग्नये जुष्टम् निरति वपामि अग्ने सोमाभ्यामित्यग्नि सोमाभ्याम् इदं देवानां इदं ओ नः सः स्फात्यै त्वा न अरात्यै सुवः अभिवीति क्षेषं वैश्वानरं ज्योतिः दृग्महन्ताम् दुर्याः द्यावा पृथिव्योरतिद्यावा पृथिव्योः उरु अन्तरिक्षम् अन्वितिः अदित्याः त्वा उपस्थैत्युपास्थे साधयामि अग्ने हव्यम् रक्षस्व मा त्वा षट्चत्वारिगुंसित्य देवः वः सविता उदिति पुनातो अच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिरति रश्मिभिः आपः देवीः अग्रे पुव इत्यग्रे पुवः अग्रे गुव इत्यग्रे गुवः अग्रे इमं यज्ञं नयता अग्रे यज्ञपतिमिति यज्ञपतिं धत्ता युष्मान् इन्द्रः अवृणीत वृत्रतूर्य इति वृत्रतूर्ये यूयम् इन्द्रम् अवृणेध्वम् वृत्रतूर्य इति वृत्रतूर्ये प्रोक्षिता इति प्राक्षितः स्था अग्नये वः जुष्टम् प्रेति उक्षामि अग्ने सोमाभ्यामित्यग्नि सोमाभ्याम् शुन्धध्वम् दैव्याया कर्मणे देवयज्याया इति देवयज्यायै अवधूतमित्यवधूतम् रक्षः अवधूता इत्यवधूताः अरातयः अदित्याः त्वको असि प्रतीति त्वा पृथिवी वेत्तो अधिशवनमित्यधि सवनम् असि वानस्पत्यम् प्रतीति त्वा अदित्याः त्वको वेत्तो अग्नेः तनोः असि वाचः विसर्जनमिति विसर्जनम् देववीतये इति देववीतये त्वा गृह्णामि अद्रिः असि वानस्पत्यः सह इदम् देवेभ्यः हव्यम् सुशमीति सुशमि शमिष्व इषम् एति वदा ऊर्जम् एति वदा द्युमदिति द्योमत वदता वयम् सङ्घातमिति सङ्घातम् ज्येष्मा वर्षवृद्धमिति वर्षावृद्धम् असि प्रतीति त्वा वर्षवृद्धमिति वर्षावृद्धम् वेत्तो परापूतमिति परापूतम् रक्षः परापूता इति परापूताः अरातयः रक्षसाम् भागः असि वायुः वः वीति विनक्तु देवः वः सविता हिरण्यपाणिरति हिरण्यपाणिः प्रतीति गृह्णातु त्वा भाग एकादश च अवधूतमित्यवधूतम् रक्षः अवधूता इत्यवधूताः अरातयः अदित्याः त्वको असि प्रतीति त्वा पृथिवी वेत्तो दिवः स्कम्भनिः असि प्रतीति त्वा अदित्याः त्वको वेत्तो धिष्णा असि पर्वत्या प्रतीति त्वा दिवः स्कम्भनिः वेत्तो धिष्णा असि पार्वती प्रतीति त्वा पर्वतिः वेत्तो देवस्या त्वा सवितुः प्रसवैति प्रसवे अश्विनोः बाहुभ्यामिति बाहोभ्याम् पोष्णः हस्ताभ्याम् अधीति वपामि धान्यम् असि ध्युनिः देवान् प्राणायेति प्रानाया त्वा अपानायेत्यप अनाया त्वा व्यानायेति वि अनाया त्वा दीर्घाम् अन्विति प्रसितिमिति प्रसितिम् आयुषे धाम् देवः वः सविता हिरण्यपाणिरति हिरण्यपाणिः प्रतीति गृह्णातु प्राणाय त्वा पञ्चदश च धृष्टिः असि ब्रह्मा यच्छ अपेति अग्नेः अग्निम् आमादमित्यामा अदम् जिहि निरति क्रव्यादमिति क्रव्य अदम् सेधा एति देवयजमिति देवायजम् वः निर्दग्धमिति निः दग्धम् रक्षः निर्दग्धा इति निः दग्धाः अरातयः ध्रुवम् असि पृथिवीम् दृगुम्हा आयुः दृगुम्हा प्रजामिति प्राजाम् दृगुम्हा सजातानिति सा जातान् अस्मै यजमानाया परेति ओहा धर्त्रम् असि अन्तरिक्षम् दृगुम्हा प्राणमिति प्राणम् दृगुम्हा अपानमित्यपानम् दृगुम्हा सजातानिति सा जातान् अस्मै यजमानाय परेति ओहा धरणम् असि दिवम् दृगुम्हा चक्षुः दृगुम्हा श्रोत्रम् दृगुम्हा सजातानिति सा जातान् अस्मै यजमानाय परेति ओहा धर्मा असि दिशः दृगुम्हा योनिम् दृगुम्हा प्रजामिति प्राजाम् दृगुम्हा सजातानिति सा जातान् अस्मै यजमानाय परेति ओहा चितः स्था प्रजामिति प्राजाम् अस्मै रयम् अस्मै सजातानिति सा जातान् अस्मै यजमानाय परेति ओहा భృగూణాం అంగిరసాం తపసా తప్యధ్వం యాని ఘర్మే కపాలాని ఉపచిన్వంతీత్యుపచిన్వంతి వేధస పూష్ణ తాని అపీతి వ్రతే ఇంద్రవాయూ ఇతి ఇంద్రవాయూ వీతి ముంచతాం చక్షురష్టా చత్వారి గుంసిత్య.